प्रथमो बाल विघ्नेशो द्वितीयस्तरुणो भवेत् तृतीयो भक्त विघ्नेश चतुर्थो वीर विघ्नपः पंचम शक्ति विघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बाल विघ्नेशो द्वितीयस्तरुणो भवेत् तृतीयो भक्त विघ्नेश चतुर्थो वीर विघ्नपः पंचम शक्ति विघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बाल विघ्नेशो द्वितीयस्तरुणो भवेत् तृतीयो भक्त विघ्नेश चतुर्थो वीर विघ्नपः पंचम शक्ति विघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बालविघ्नेषु द्वितीयस्तरुणो भवेत् तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ठ उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बालविघ्नेषु द्वितीयस्तरुणो भवेत् तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ठ उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत्, तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः। पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः, सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः। नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः, एकादशश्च हेरम्बः, द्वादशो विश्वरूपकः। त्रयोदश संकट नाशनो विघ्ननाशनः, चतुर्दशश्च महागणपति नाम पञ्चदशः। षोडश संकटहर इति षोडशमूर्तयः, विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा, संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत्, तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः। पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः, सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः। नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः, एकादशश्च हेरम्बः, द्वादशो विश्वरूपकः। त्रयोदश संकट नाशनो विघ्ननाशनः, चतुर्दशश्च महागणपति नाम पञ्चदशः। षोडश संकटहर इति षोडशमूर्तयः, विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा, संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत्, तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः। पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः, सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः। नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बालविघ्नेषु द्वितीयस्तरुणो भवेत् तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ठ उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते प्रथमो बालविघ्नेषु द्वितीयस्तरुणो भवेत् तृतीयो भक्तविघ्नेश चतुर्थो वीरविघ्नपः पञ्चम शक्तिविघ्नेश षष्ठो ध्वजगणाधिपः सप्तम सिद्धिरुत्तिष्ट उच्छिष्टश्चाष्टम स्मृतः नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः एकादशश्च हेरम्बः द्वादशो विश्वरूपकः त्रयोदश संकट नाशनो विघ्ननाशनः चतुर्दशश्च महागणपति नाम पञ्चदशः षोडश संकटहर इति षोडश मूर्तयः विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। प्रथमो बाल विघ्नेशो द्वितीयस्तरुणो भवेत्, तृतीयो भक्त विघ्नेश, चतुर्थो वीर विघ्नपः। पंचम शक्ति विघ्नेश, षष्ठो ध्वजगणाधिपः, सप्तम सिद्धिरुत्तिष्ठ, उच्छिष्टश्चाष्टम स्मृतः। नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः, एकादशश्च हेरम्बः, द्वादशो विश्वरूपकः। त्रयोदश संकट नाशनो विघ्ननाशनः, चतुर्दशश्च महागणपति नाम पञ्चदशः। षोडश संकटहर इति षोडशमूर्तयः, विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। प्रथमो बाल विघ्नेशो द्वितीयस्तरुणो भवेत्, तृतीयो भक्त विघ्नेश, चतुर्थो वीर विघ्नपः। पंचम शक्ति विघ्नेश, षष्ठो ध्वजगणाधिपः, सप्तम सिद्धिरुत्तिष्ठ, उच्छिष्टश्चाष्टम स्मृतः। नवमो विघ्नराजस्याद् दशम क्षिप्रनायकः, एकादशश्च हेरम्बः, द्वादशो विश्वरूपकः। त्रयोदश संकट नाशनो विघ्ननाशनः, चतुर्दशश्च महागणपति नाम पञ्चदशः। षोडश संकटहर इति षोडशमूर्तयः, विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते। इति षोडशगणपतिस्तोत्रं सम्पूर्णम्।